अयोनविद्वाजि
स्वयम् धुरिताम्बामि प्रतराणीमपश्चिमम् नास्यावस्तिमिवृतम् नावृतम् पुनर्विद्वान् तसः पूरयेत ऋजुमेषति अग्नयिन्द्रवरो न मित्रदेवाः शर्धप्रयम् तमारुतोत विष्णो उभानासत्या रुद्रोऽधघ्ना पूषा भगः सरस्वती जुषन्त इन्द्राग्निमित्रावरुणादीम् स्वः पृथिवीञ्जामरुतः पर्वताहपः उभे विष्णुम् पूषणम् ब्रह्म वनस्पतिम् भगन्न संसं सवितारमूतये उदनो विष्णोरुतपातो अश्रुधो द्रविणोता उदसोमयस्करत् उदर्भव उदराजेनो अश्विनो दत्वक्षोत विद्भानो मंसते उदत्यन्नो मारुतम् सर्धागमद्दिभिक्षयम् च जलम् बर्हिरासते बृहस्पतिः शर्म भूषोदनो यमद्वरूथ्या अम्बरो नो मित्रो अर्जमा उदत्येन पर्वताशस्वशस्त्रयस्वीगयो नद्या अस्त्रामाणे भुवनन् भगो विभक्ता सवसा वसागमलव्यचारिति श्रोतुमेहम् देवानाम् पत्नीरुसतीरवन्तु नः प्रावन्तु नस्तु जयेवाज साधये याः पार्थिवासो या अपामभिव्रते तानो देवीष्वपाः शर्म यच्छत उदग्नाव्यम् तु देवपत्नीरिन्द्राण्यायश्विनीलाट् आरोदसी वरुणानि शृणोतव्यम् तु देवीर्यरुदुर्जनीना